ओके का वदति
शलै भगिनी आरम्य
वदतु भगिनि ऐ डोण्ट् हेव् इट् आन् स्क्रीन् बट् ऐ थिङ्क् यु नो बै नौ करेक्ट्
ओके सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ओम्
धन्यवादः भगिनि सो अत्र ऐ हेड् सेण्ट् दिस् रैट् सो एनी क्वश्चन्स् वित् दिस् शिष्टाचार्यः शिष्टाचाराः नारायणमूर्तिमहोदय हेड् सेण्ट् स्माल् लेटर् यूसिङ्ग् आल् द शिष्टाचार्य नाट् आल् बट् या उत्तमं महोदय अस्तु
About seven I had used, ma'am.
Aam, mahodaya.
Sapta.
Astu. Kim kurmaha vayam... Etat abhavat kalo kutra asti kutra gacchati. Astu. Etam grihapatam pashyamaha. Etam grihapatam. अस्तु चेतकि भगिनी आरम्भं करोति वा अग्रजः कार्यालयः गच्छति
आमां भगिनी
हा
बालकः कुत्र अस्ति बालकः विद्यालये अस्ति
भगिनी सो वि आर् नौ डूयिङ्ग् अनदर् वर्क्शीट्
विद्यालये गति छात्राः पाठं
Bhagini, we are not doing this. Bhagini, we are not doing this. Okay? We are doing this one. 7.1 to 7.2.
Okay. Chhatraha patha patham jananti. Chhatraha patham jananti.
Chhatraha patham jananti.
Sita kau... No, agrajaha karyalayam agachati. Right?
Not clear. Too many screens are changing. I don't know what are we doing.
Yeah, no, I'm trying to see where she is reading from.
Agrajaha.
Thank you.
Agrajaha karyalaya agachati.
Vadatu bhagini. Agrajaha.
Karyalayam agachati.
Karyalayam agachati. Uttamam. Atra, what is the question?
Question is going to ask kutra gacchati
kutra agacchati uttamam karyalayah agacchati and what is the sarvanama padam bhagini
sarvanama is saha karyalayam agacchati
so when we ask the question kutra what will be the answer
is सः कार्यालयम् आगच्छति
आं भगिनि बट् इफ् यु डोण्ट् वाण्ट् टु से द वर्ड् कार्यालयम्
ओ
यु जस्ट् वाण्ट् टु यूस् समथिङ्ग् क्विकर्
अग्रजः कुत्र गच्छति
इस् द क्वश्चन् अस्तु
अग्रजः
सो यु से तत्र
अग्रजः तत्र आगच्छति
उत्तमं भगिनि अस्तु गोपिका
नमस्कार परमे एम् आर् परमेश्वरन्
परमेश्वर महोदय आर् देर् एनि मोर् पीपल् हू जस्ट् केम् इन् हूस् नेम् ऐ डिड् नाट् काल्
रेड्डि भगिनि
भगिनि इस् हियर् Who, Bhagini?
Usha Prabhakar.
Usha, I already called the name. Astu. Anybody else? Nootana Chatraha? Astu. गोपिका भगिनी, मूषकः वदति, वदतु.
मूषकः वदति मार्जालः, अहं विल् चेञ्ज् टु माम् खादति.
माम् खादति, उत्तमम्.
प्रश्नाः कं माम्.
कं माम्, ओके. सो इफ् या बिकास् इट् इस् पुल्लिङ्ग, करेक्ट्? पुल्लिङ्ग, मूषकः इस् पुल्लिङ्ग, सो इट् इस् कं माम्. सो इफ् इट् इस् मूषिका, काम्. उत्तमम्, काम् माम्. उत्तमं भगिनि, अस्तु. सागरि भगिनि, भगिनि एकनिमिषं भगिनि. मार्जालः इस् केट्, मूषकः इस् मौस्.
Now, how will we ask the question?
Here, you say, Marjalah kam khadati, Marjalah maam khadati.
Oh, astu bagini.
Astu.
Aham kandukam aneyami. Aham kam aneyami. Aham tam anayami.
Astu. So in some dictionaries it is kandukaha. So kam and tam is okay, but if it is napumsakalingam, it is kim.
And tat. Or
etat. Yeah. Astu. The next person, Usha Bhagini. So whoever is answering, you please keep your mic open. The others, please mute. Astu. So after Usha Bhagini, Sharada Bhagini, Anantaram Beena Bhagini. Astu. Usha Bhagini, idani.
Okay. Aham karaduravani, aham karaduravani anveshayami.
Uttamam, karaduravani anveshayami. Astu.
And the question would be, kam anveshayami?
So, karaduravani is a stree linga, kalu?
Okay, so it should be kam.
Kam, uttama, kam.
And then, sarvanama? I didn't quite understand this, Bhagini.
Yeah, it's a good question you asked me. So, what we'll do is, we'll do a short punasmarana, okay? So, atra, when we have pataha, chatraha pataha jananti, okay, pataha. Pataha will become patam, to show that this is now the object.
Yeah.
Okay, chatraha patam jananti. So, the prashna is, kam jananti, patam jananti. So, it is etam. It can also be tam.
Okay.
Yeah.
So the other question.
Bhagini, let me just do an overview. So
no, I just wanted to go over the previous one. I had a doubt.
Okay.
You said mushakara vadati. Marjalah maam khadati. But for question, I put kim khadati.
No. Kam khad. I mean, if you know that it is a pullinga, you ask kam khadati.
Oh, I see. Okay, so it should have been kam.
For example, aham bhavati na pashyami. Bhavatyaha haste kim asti iti aham prichyami. Kim asti iti. Because I don't know what is in your hand. Hello? So I can ask. Bhavatyaha haste kim asti, but if I know that you have a duravani, or you have a book, or you have a cup, then I will say kam asti, or kam asti, or kim asti, if I know what is in your hand. Otherwise, it's just kim asti, like that.
So you're saying here, aham duravanim अन्वेषयामि काम् अन्वेषयामि
काम् अन्वेषयामि अण्ड् देन् आन्सर्
काम् अन्वेषयामि
ता
ओके
ओके सो इफ् इट् इस् काम् इट् इस् तम् काम् इट् इस् ताम्
ओके गाट् इट्
किम् इट् इस् तत्
ओके
एवमेव if you are going towards a place it is kutra and tatra so if it is aham it will be mam
okay so the next one was chhatraah bhava bhavantam jananti then it should be kam jananti I put kam so I'm wrong should have been kam
astu so the next person sharada bhagini
हां भगिनि छात्राः कं जानन्ति छात्राः भवन्तं जानन्ति
अस्तु भगिनि उषा भगिनी कृतवती शी आलरेडी डिड इट सो यू गो डू द नेक्स्ट वन भवान्
कां स्वीकरोति भवान् रोटीं स्वीकरोति भवान् तां स्वीकरोति
उत्तमं भगिनि शारदा भगिनी उत्तमं बीना भगिनी अनन्तरं सविता अनन्तरं उमाकृष्णन् भगिनी बीना भगिनी
कर्मकरः भवतीं स्मरति कर्मकरः कां स्मरति कर्मकरः तां स्मरति
भवतीं स्मरति अत्र भवती इट्सेल्फ् इस् अ सर्वनामपदम् ओके लैक् उषा सेड् ऐ डिन्ट् करेक्ट् प्रापर्लि छात्राः भवन्तं जानन्ति अत्र छात्राः कं जानन्ति भवन्तं जानन्ति because bhavan and bhavati are already sarvanama pada so it stays like that bhavantam kam bhavantam kam bhavati okay so gopika bhagini if I didn't correct you so please
bhagini
correct it vadat
the choice of whether it is kim kam or kam
For example, if it is roti, it is a strilinga padam.
Correct.
So it is kam.
If bhavan, I don't know, kam? then it becomes the default masculine.
Kim. Okay. For a thing, it is the default is kim. Napumsakalinga.
Okay. Anything unknown becomes kim.
Kim.
Otherwise, it goes based on the answer. Okay.
Astu. So, for the people who sent me the answer, if I did not correct, if it is Bhavan or Bhavati, it stays as Bhavantam and Bhavati. The answer. But the question is kam and kam. Astu. Savita
Bhagini, it was there in the correction paper, Bhagini.
Evam va? Astu.
Danyavada.
Astu. Danyavada, Bhagini. Astu. Savita Bhagini?
Yeah, yes, Bhagini. Bhavati aham smarati. Bhavati mama smarati?
Mom. Because mama means, if I ask you, Bhavatyah nama kim? How will you answer, Bhagini? Bhavatyah nama kim?
Mama nama Savita.
So, mama is my, kalo, my name.
Yes. Okay.
Here it is me.
Mom.
Vadatu, Bhagini.
Bhavati, mom smarati. Bhavati kam smarati?
Kam and Ma, Uttamam Bhagini. Kam and Ma, Uttamam. Uma Krishnan Bhagini.
The same thing if I was answering,
भगिनि
ओके
प्रश्नः
एकनिमिषं भगिनि श्रीनिवास महोदय हेज़् अ क्वेश्चन् वदतु महोदय
शी आन्सर्ड् भवती कां स्मरति वा ऐ आन्सर्ड् द सेम् थिङ्ग् भवती कं स्मरति वा
आम् आम् उत्तमं कं स्मरति वा कं स्मरति मां स्मरति
दट्स् ओके बिकास् the answer is, the question becomes masculine general because the person who is speaking in this case
okay. It can be both the right, beginning bhavati and bhav
it can be aham for aham it can be kam or ka but mom is the same for both
mom okay
astu beginning
That was my question as well because me is the object could be masculine or feminine so either answer is correct right depending on who is asking the question right
correct
so it could be kam mam smarati
no it should be
what's the question then
bhavati kam smarati if it is a male
ओके
भवती मां स्मरति वा
भवती मां स्मरति वा ओके
अथवा भवती कां स्मरति मां वा हू आर् यू रिमेम्बरिङ्ग् आर् यू रिमेम्बरिङ्ग् मी भवती कां स्मरति मां वा अथवा भवती कं स्मरति मां वा So when you ask a question, you cannot put the va also. If I say, Bhavati kaam smarati, you cannot say, Bhavati kaam smarati va. No, there is no va.
Okay.
So the question comes either here, kaam, or Bhavati maam smarati va, like that.
Oh.
You cannot have both the question, the kakara question and the va, you cannot have.
Okay, so we say, Bhavati Kam, can you just repeat that? I'm a little confused, Bhagini.
Astu. Bhavati Kam Smarati, Bhavati Mam Smarati. Bhavati Kam Smarati, Bhavati Mam Smarati.
Dhanyavada.
अस्तु भगिनि उमाकृष्णन् भगिनी अनन्तरं नारायणमूर्ति अनन्तरं श्रीनिवास महोदय अस्तु प्रश्नः वा छात्राः उमाकृष्णन् भगिनि वदतु भगिनि
छात्राः किं जानन्ति
अत्र भगिनि कक्ष्या इति स्त्रीलिङ्गपदं खलु
ओके
वदतु
सो छात्राः कक्ष्यां जानन्ति
कक्ष्यां जानन्ति अस्तु
एण्ड् द क्वेश्चन् वुड् बि छात्राः कां जानन्ति
उत्तमं कां जानन्ति
छात्राः तां जानन्ति
उत्तमं भगिनि उत्तमम् अस्तु प्रश्नः अस्ति वा केतकि भगिनी अनन्तरं गोपिका भगिनी वदतु छात्राः कां जानन्ति बिकास् यु आर् सेयिङ्ग् कां फार् द कक्ष्यां अस्तु गोपिका भगिनी वदतु
प्रश्नः वा
प्रश्नः यु हेड् अ क्वश्चन् खलु प्रश्नः
आं भगिनि यु से विरमामः रैट् भगिनि
दट् मीन्स् लेट्स् टेक् अ ब्रेक् विरमामः
अस्तु भगिनि
अस्तु वयं विरमामः लैक् दट् अस्तु नारायणमूर्तिमहोदय अम्बा
अम्बा भवान वदति अम्बा माम वदति
नो भवान विल बिकम भवन्तम्
ओके माम
माम न इट विल बिकम भवन्तम् अम सो भवान विल बिकम भवन्तम्
भवान विल बिकम
भवन्तम्
भवन्तम् वदति
अम्बा भवन्तम् वदति उत्तमम्
अम्बा भवन्तम् वदति
या लाइक मॉम इज टॉकिंग टू यू अम्बा भवन्तम् वदति
अम्बा भवन्तम् वदति
आम
सो भवान विल बिकम भवन्त
आम
बिकॉज़ भवान बीइंग ए न्यूट्रल
No, it is just the way it is. For example, Shaka will become Shakam. Kakshya will become Kakshyam. But Bhavan, okay, so let me just write it here. So for Bhavan, the Moola Padam is Bhavat. So they behave differently.
Yeah.
So for this, the Prathama Vibhakti is Bhavan and the Dvitiya Vibhakti is Bhavantam. That is just how it is. Okay, we just have to know this. We just have to learn this. That's all. Okay, similar to for aham asmat for aham the moola padam is asmat so the prathama vibhakti is aham the dvitiya vibhakti is mam why is it mam it's just how it is this is something we just have to learn that's all
okay
अम्बा भवन्तं वदति उत्तमम्
अम्बा भवन्तं वदति
उत्तमम् भवन्तं वदति अम्बा सो हौ विल यू आस्क द क्वेश्चन कम और काम और किम
नो माय माय देयर इज द ब्रेक इन माय अम्बा भवन्तं वदति अम्बा काम वदति
kam vadati because it is pullinga kam vadati amba bhavantam vadati
amba bhavantam vadati
amba bhavantam
vadati amba kam vadati amba bhavantam vadati
amba bhavantam vadati uttamam bhagavane Avagatam va?
The audio is not clear, ma'am. Audio is not clear, ma'am. We have a lot of break.
Yeah, okay. So everybody, can you please mute? Okay, only the people who are talking, please unmute and talk. Asto. Amba bhavantam vadati. Amba kam vadati.
Amba kam vadati will be the question.
No, it's not kam, Mahadeva, it is kam. Because it is pullinga. Bhava is pullinga.
Pullinga. Yes, kam will be for strilingam. Correct. Amba kam vadati. For neutral and pullingam, it should be kam.
No. For neutral, it is kim.
Neutral, kim.
Kim.
Kim, kim. That's it. Kim. Kim, kam, kam. So, amba bhavantam vadati. Kam vadati is for a masculine question form.
And the answer is again Amba Bhavantam Vadati. Because Bhavan is already the Sarvanama Padam. Bhavantam Vadati. Uttama. Astu. Srinivas Mahadeya.
Bhavati Bhavatyaha Mitram Vadatu. भवती भवत्याः किं वदतु भवती भवत्याः तत् वदतु
tat vadatu uttama.
What will be the translation of this sentence? Bhavati
okay. Bhavatyaha. You speak to your friend.
You speak to Bhavati Bhavatyaha. Okay, both of them are females. Okay, got it.
Bhavati Bhavatyaha Mitram Vadatu. Okay. So here also this is like a technical question, just like how Bhavan is already a Sarvanama Padam. Okay. So Mitram, we call it a Nitya Napumsakalinga Padam. So it is always Napumsakalinga Padam. But in general, for Mitram, we can use it for Pullinga or Strilinga. Okay. So we can say, like, if you look at the technical, you should say tat mama mitram. But we can say saha mama mitram.
Yeah, correct. That makes more sense.
Yeah, saha mama mitram. Okay, but technically it is tat. But
saha mama mitram.
Saha mama mitram. Yeah. So if you are going to use it like a pullinga, you can say bhavati bhavatyaha kam vadato. Because it is vadatu, you can say kam vadati, like that. So you say tam vadatu. So if you are thinking like a strilinga, kam.
So the question is all in the strilinga. Bhavati, bhavatyaha, tam vadati. Kam vadatu, tam vadati.
Kam tam or kam tam. But kim tat is the technical, but if you are...
Technically right, but sentence doesn't make sense.
Yeah, so if you're going to interpret the mitram as a pullinga, then you say kamanta.
Okay.
Yeah. Astu. Samichina mahodaya. Ramya bhagini.
Aham Bharatam gachami. Aham kutra gachami. Aham tatra gachami.
Tatra gachami. Uttamam bhagini. Saundaram bhagini. Balika. Balika.
Balika. Sha kam kadanti. Balika. Kam kadanti. Balika. Tam kadanti.
Uttamam bhagini. Astu. Parameshwar Mahodaya. Anantaram Uma Reddy bhagini. Parameshwar Mahodaya. Idani.
Mahila. घडी ददाति महिला का ददाति
महोदय द घटी शुड चेंज फॉर्म राइट
ओके महिला घटीं ददाति
घटीं ददाति उत्तम
महिला का काम ददाति महिला ताम ददाति
उत्तम महोदय अस्तु उमा रेड्डी भगिनी बालिकाः
भगिनी
बालिकाः
शाकलेहं
खादन्ति उत्तमं
खादन्ति बालिकाः काम खादन्ति बालिकाः तां खादन्ति
उत्तमं भगिनी इस् देर् एनिबडी एल्स्
बालिकाः मीन्स् मेडम्
द गर्ल्स्
Girls, okay.
Bhagini, I came for the first time and I'm kind of listening and trying to understand. So, next time.
Okay. Malati Bhagini, va? Astu.
Yeah.
Astu.
Bhagini, this Chakaleva is Pullinga. Should it not be Kammentam?
Yeah, it is Kammentam. She said Kammentam, right?
No, I think she said calm. Maybe I heard it wrong.
I thought she said come and tam. Balikah tam kadanti, balikah tam kadanti.
Bhagini?
Vadatu Bhagini.
I also heard as calm and tam.
Oh, sure.
Bhagini, balikah is a strilling, right?
So
it is not a kim?
Bhagini, we are talking only about the chakaleha.
Chakaleham.
Okay, chakaleham.
Bhagini, Oh,
Bhagini, no, no, no. It should be come, Bhagini, because it is pullinga kalu. Sorry, I heard it as come. I mean, I heard it as come and tam. Yeah. Chakaleha is a pullinga. Dhanyavadaha Usha Bhagini and the other Bhagini. Dhanyavada. So it is come and tam. Come and tam.
Bahuvachanam.
No, bahuvachanam na. Ekavachanam eva.
Ekavachanam. Pullinga.
Pullinga ekavachanam. Astu. Okay. So we go from the beginning again. Ketaki Bhagini. Amba.
Yes, Bhagini.
Vadati. Amba.
Amba. Bhavatyaha.
पुनः वदतु किमर्थं भवत्याः भवत्याः इस् युवर् खलु युवर्
सो अम्बा भवतीं
ओके भवतीं अस्तु भगिनी अत्र भवती स्त्रीलिङ्ग खलु नो सो भवती इस् आलरेडी सर्वनामपदम् भवतीम् अन्नं परिवेशयति अम्बा काम् अन्नं परिवेशयति अम्बा भवतीम् अन्नं परिवेशयति उत्तमम् अस्तु गोपिका भगिनी
अध्यापिका I will combine the question and answers in the beginning.
Asti Bhagini.
Adhyapika kam pashyati. Adhyapika maam pashyati.
Uttama. Samishena.
Dhanyavadam.
Asti. Asti. Sagari Bhagini.
Bhagini, Jyoti here.
Vadatu. Oh, Jyoti va. Jyoti Bhagini vadatu.
I was not able to log in. Just now I logged in.
अस्तु भगिनि एतत् वदतु अग्रजः
अग्रजः भगिनि ऐल् गो थ्रू अण्ड् लेटर् ऐल् आन्सर्
अस्तु
भगिनि
अस्तु 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 स्वागतम् अण्ड् सारि यु आर् हेविङ्ग् ट्रबल् अस्तु सागरि भगिनि
थेङ्क्स्
अग्रजः अनुजां न ताडयति अग्रजः कां न ताडयति अग्रजः तां न ताडयति
उत्तमं तां न ताडयति उत्तमं भगिनि उषा भगिनी सा
भवन्तं दर्शयति
सो अत्र वेन् वि से तं वि आर् टाकिङ्ग् अबौट् अदर् पीपल् करेक्ट् तं लैक् सः अस्ति अहं तं पश्यामि
Oh, okay. So here it is not there, right? Because Bhavan itself is a Sarvanama.
Correct. Bhavan itself is a Sarvanama. So he is looking at you. Bhavantam darshayati.
Okay.
Astu Bhagini.
Sa Bhavantam darshayati.
Sa Bhavantam darshayati.
Okay.
Astu. Usha Bhagini.
I just said no.
I'm sorry. Sharada Bhagini. Sharada Bhagini.
महिला कां गृह्णाति?
पुनः वदतु
महिला कं गृह्णाति?
कं गृह्णाति
महिला? महिला घटं गृह्णाति? महिला तं गृह्णाति?
उत्तमम् उत्तमं भगिनि. बीना भगिनी अनन्तरं सविता भगिनी. बीना भगिनी,
भगिनी केन् यु एक्स्प्लेन् मी द तं, बिकास् कम् ऐ अण्डर्स्टाण्ड् तं.
सो तं, सो so instead of come, instead of the kakara you put the takara, come. Instead of come you put tam.
But what is that tam?
Tam means him.
Oh, okay.
Yeah, udaharana we have saha.
Yeah, yeah.
So for sa and sha, like eshah, only for the prathama vibhakti ekavachanam we'll see sa and sha. Everything else it will turn to ta.
Okay.
Okay, so instead of sam it will become tam.
Okay.
So the same way sa can be seen only in prathama vibhakti ekavachanam.
Yes.
Everywhere else instead of sa it will be ta.
Yeah,
I'm just saying generally. So
yeah,
instead of sam it will be ta.
Okay.
Astu.
Okay, thank you. Dhanyavaad.
Astu bhagini. Beena bhagini.
Mahila jalam nayati. Mahila kim nayati? Mahila tat nayati.
Mahila tat nayati. Uttamam bhagini. Savita bhagini, anantaram Uma Krishna bhagini. Savita bhagini.
Devaha bhavatya palayati.
Kimartam ya agachati bhagini tatra?
Because of ikaranta I thought bhavatyam.
No.
Devaha bhavatya.
No. So atra udaharanartam supposing it is droni asti chet, katam bhavati droni?
Droni.
Droni. So use the same thing here.
Devaha bhavatim.
Bhavatim palayati. Uttama.
Palayati. Devaha bhavatim palayati.
Bhagini. Palayati artam.
Palayati is to take care.
How do I ask the full question? What is the meaning of? And I mentioned the word. So,
artaha kaha.
How do I say that?
Palayati iti artaha kaha.
Iti artaha kaha.
Iti prashnasi artaha kaha. Iti palayati iti artaha kaha. अस्तु भगिनि वदतु. उमा कृष्णन् भगिनि. देवः भवतीं पालयति.
विच् वन् शुड् ऐ डू? देवः भवति पालयति उमा कृष्णन्.
उमा कृष्णन् डिड् दट्. अस्तु या उमा कृष्णन् या वदतु भगिनि.
द नेक्स्ट् वन् इस् इट् बालक मन्दिरं गच्छ. बालकः कुत्र गच्छति? बालकः बालकः तत्र गच्छति.
उत्तमं भगिनि. तत्र गच्छति. अस्तु. नारायणमूर्तिमहोदय, अनन्तरं श्रीनिवासमहोदय.
सः प्रार्थयति, हे देव, मां रक्षतु.
उत्तमं. मां रक्षतु.
मां रक्षतु. हे देव, कां रक्षतु? प्रश्न. Tam rakshatu.
So you cannot combine both, Mahadeya. So when you say mam rakshatu, since you're a male, you say kam rakshati
mam. Kam rakshati question mark. Hey deva, mam. मां रक्षतु.
मां रक्षतु.
Bhagini, in this case, both kam and kam is okay, depending on who is, whether you're a man or a woman.
So, Atra, when there is a command, the question will become awkward, right? Who?
Yes.
Who, yeah. So, but just this is only to, for the, to learn the technique.
Yeah, for practice.
Kam Rakshatu, who do you say? Me. Kam Rakshatu, Mam Rakshatu. Atava, Kam Rakshatu, Mam Rakshatu. Astu Bhagini, Gopika Bhagini, you had a question?
No, Bhagini, it was Saha Prarteti, He Deva. So, I wrote it as Pullingam Bhagini, is that correct?
Correct, Saha, Uttama, Saha.
Astu Bhagini.
Good point, Bhagini, good point. Astu, Srinivasa Mahodaya?
Just going to the previous sentence, this is normally Hey Deva will come in the quote unquote basically. That's what
It's the
quote unquote
statement. So when you put the hyphen, it is like if the quote is starting. Yes.
Okay.
And Bhagini, here because it says Saha Prarthayati, then it should be only come, not come.
But if it is not there, if the Saha is not there.
It is not there.
Yeah.
Yes, yes. Because I also wrote the same thing. I wrote Kam, so I was just wondering.
Uttama. Srinivas Mahade.
Gardabaha Varam Bahati. Gardabaha Kim Bahati. Sorry, Gardabaha Kam Bahati. Gardabaha Tam Bahati.
Uttama Mahade. Astu. Ramya Bhagini, Anantaram Saundaram Bhagini.
Gardabaha Baram.
Gardabaha Abhavat Bhagini. That is finished.
Okay. Saha Dronim Purayati. Saha Kam Purayati. Saha Tam Purayati.
Uttamam Bhagini. Saundaram Bhagini, Anantaram Parameshwar Mahodaya. Saundaram Bhagini.
Bhavan Pushpam Nayati. Bhavan Kim Nayati. Bhavan Tat Nayati.
Uttama. Saundaram Bhagini. Abhavat.
Just now you said.
Parameshwar Mahodaya, Anantaram Uma Reddy Bhagini.
Mahila.
Mahodaya, Ekanimsha Mahodaya, Idanim Saundaram Bhagini Vadati.
Okay.
Mahila Bhavan Anayati.
Ahvayati.
Mahila screen Bhavantam Ahvayati.
Bhavantam
Ahvayati. Mahila Kam Ahvayati. Mahila Tam Ahvayati.
So when you say Tam, I'm talking about him.
Bhavan.
So Atra Bhavan itself is a Sarvanama Pada.
Okay. Bhavana.
So Bhavantam Eva.
Bhavantam.
Mahila Bhavantam Ahvayati. Bhavan Mahila
Bhavantam Ahvayati.
Mahila Bhavantam Ahvayati.
Bhavantam Ahvayati.
Uttamam Bhagini. Parameshwar Mahodaya.
Aham Syutam Anayami. Aham Kam Anayami. Aham Tam Anayami.
Uttama. So whenever we have the Prashnaha like Aham or Bhavan, you can change it the other way. Bhavan or Bhavati Kam Anayati. Aham Syutam Anayami. So the question can go either way. You can ask yourself the question. Aham Kam Anayami. Bhavati Kam Anayati, like that. Astu. Uma Reddy Bhagini?
Yes, ma'am.
Ekanimsha, I'll just move the screen a little bit.
Bhagini, this thing, when we answer aham, it can either, we can ask ourselves the question, which really doesn't make much sense, So, it's better to change it to Bhavan or Bhavati when you make a question.
Yeah, but the, at the same time, you can say, I'm talking to myself. What am I bringing? Oh, I'm bringing that, like that. Either way is
okay.
Yeah, whichever way you want, you can do that. Ask. Ask. Vadatu Bhagini.
Bhavatyaha putri smarati. Bhavati. भवत्याः पुत्रीं भवतीं स्मरति.
भवत्याः पुत्री भवतीं स्मरति. उत्तमं.
भवत्याः पुत्री कं भरति.
सो भवती इस् स्त्रीलिङ्ग खलु.
कां स्मरति भवत्याः पुत्री तां स्मरति.
सो अत्र तां मीन्स् हर् खलु. हर्
ओके तत् तां
नो नो यु बिकास् यु वाण्ट् टु से यु शी इस् रिमेम्बरिङ्ग् यु.
ओके भवत्याः पुत्री कुत्र स्मरति.
नो भवतीम् एव.
भवतीं भवतीं चेप्पन् कदा मेडम्
भवत्याः पुत्री कां स्मरति. भवत्याः पुत्री भवतीं स्मरति.
भवत्याः पुत्री तां स्मरति.
या दट् इस् अ मिस्टेक् भगिनि. दट् इस् अ मिस्टेक्. ऐ थिङ्क् ऐ मेड् द मिस्टेक् हियर्. No, I didn't make the mistake. I thought I made the mistake. So, Atra, it stays as Bhavatim.
Bhagini, Bhavatim is you, or yeah. Bhavantam is you. Both are you, right? Male and female.
Male and female. So, Atra, the question is Kam, and the answer is Bhavatim. Or the question is Kam, and the answer is Bhavantam.
Bhavantam,
because it is you. So, it doesn't change to tam and tam. Because when I say tam, it is him. I remember him.
Bhavatyaha putri bhavantam smarati.
Bhavatim bhagini. Bhavatim.
Bhavatyaha putri bhavatim smarati. Bhavatyaha putri bhavatyaha smarati.
Bhavatyah means, what does Bhavatyah mean?
Bhavatyah means?
So if I ask you, Bhavatyah namakim, what does that mean?
Me yokka peru.
Me peru, correct? Me peru.
Na peru.
Mama naam
Umareddy.
Umareddy. So when you say mama, you are saying na peru, hello?
Na peru.
So how will you say in your language you ninna or something like
meeru
no
meeru
no, ninnu
ninnu
ni putri ninnu marati, like that.
But ni ninnu is more like tvam.
Okay, so how can we say you?
How can we say that
question? Meeru is with respect.
Okay, so how will you say that in Telugu Bhagini? Can you please help Uma Reddy Bhagini out?
Meeru is correct.
Meeru.
But Meeru is the same for both masculine and feminine.
Okay, so I want a feminine one. Like supposing you, I want to say I remember you.
No, there's nothing like that. You'll say
nothing
like that.
Okay, in Tamil we say
unnai. Yeah, but that's for both male and female, right?
Unnai. Yeah.
So
the same is in Telugu. Bhagini. Bhagini. Unnai. Like that. Asto. Yeah, Bhagini, a question? Yes, what is the question?
Bhavatyah putri kam smarati.
Okay,
madam.
Okay.
भवत्याः पुत्री तां स्मरति राङ्ग्
राङ्ग् तां मीन्स् हर्
सर्वनामपदं भवति
सो इट् शुड् बि भवतीमेव भवतीं भवतीम् ओके इट् शुड् बि ओन्लि भवतीम् भवतीम् ओके बिकास् भवती इस् आल्रेडि अ सर्वनामपदं लैक् यु सो इफ् यु से तम् अण्ड् तम् इट् विल् बिकम् हिम् अण्ड् हर् लैक् दट् अस्तु मालती भगिनी वदति वा आर् नो
no ma'am not no. yet
so let's skip this okay instead of nadi I changed it to shilakhandam jyoti bagini shilakhandah I changed it
chatraah kim kshipanti what is that bagini
so I said shilakhandah so it is a pullinga padam
shilakhandah is pullinga pada छात्राः
ओके सो विल् स्किप् दिस् भगिनि सो यु गो टु द नेक्स्ट् वन् अहं स्थालिका
अहं स्थालिका आनयामि
भगिनि इट् शुड् चेञ्ज् टु वदतु
अहं काम् आनयामि अहं स्थालिकाम् आनयामि
अहं स्थालिकाम् आनयामि उत्तमं भगिनि सो ऐ विल् जस्ट् फिनिश् आफ् द नेक्स्ट् वन् बालिकाः इड्लीं खादन्ति काम् खादन्ति इड्लीं तां खादन्ति अहम् अत्र अस्मि मां पश्यतु ओके काम् कां पश्यतु मां पश्यतु ओके बिकास् अहम् इस् आल्रेडि अ सर्वनामपदं वि केनाट् से कम् तम् आर् कम् सो एनि सो एस् ऐ टोल्ड् यु दिस् इस् अ डिफिकल्ट् वन् ओके सो मेनि पीपल्
केन् यु रिपीट् द 34 द क्वश्चन् वर्ड्
काम्
सो ऐ सेड्
अहम् अत्र अस्मि
मां पश्यतु
मां पश्यतु
मां पश्यतु
मां पश्यतु
सो द क्वश्चन् वर्ड् इस्
कां पश्यतु
काम्
काम् ओके ऐ हेड् डन्
फार् काम् आर् कम् डिपेंडिंग ऑन द जेंडर
या डिपेंडिंग ऑन द जेंडर यस फॉर या फॉर अहम् इट् डिपेंड्स ऑन द जेंडर यस भगिनी या क्वश्चन्
Bhagini, 30 question, I cannot understand. 30, Bhavatya.
So the question is, Bhavatyah Putri. Bhavatyah Putri means what? Bhavatyah Putri.
Sana, Aame Kuturu.
Your daughter, Kalo, your daughter. మీ కూతురు మిమ్మల్ని స్మరతి వా
నిన్ను
నిన్ను నిన్ను
మిమ్మల్ని
నిన్ను ఇస్ ద రైట్ వర్డ్
మిమ్మల్ని ఇస్ విత్ మిమ్మల్ని ఇస్ విత్ రెస్పెక్ట్ హలో మిమ్మల్ని మిమ్మల్ని స్మరతి మిమ్మల్ని స్మరతి
మిమ్మల్ని స్మరిస్తుంది భవత్యాః భవతీం స్మరతి
భవతీం స్మరతి ఎవరిని స్మరతి భవతీం ఏవ
భవతీం స్మరతి భవత్యాః పుత్రీ తాం స్మరతి
కాం స్మరతి ఎవరిని స్మరతి మిమ్మల్ని స్మరతి
స్మరతి అయితే ఇంకొకటి అంటాం కదా అంటుంది కదా మేడం తాం అని అది అనొద్దా అది
రాదంటే
బాల్ని స్మరతి లైక్ దట్
అంటే నాకు డౌట్
వచ్చింది. అండర్స్టాండ్ ఇఫ్ ఓన్లీ టీచర్ అండ్ ద స్టూడెంట్ టాక్స్ ఇట్ విల్ బి క్లియర్ ఫర్
us. I'm helping out in Telugu.
Yeah. So they are helping out in Telugu, but what she means is one by one.
Yeah.
So, ardha ayinda bagini?
Ardhamayindi.
Astu.
Adhe naku ardham kaledu, andukani mimmulanu annitiki cheppinam kada tam ki tam ani.
Aama.
Okkadaniki cheppottunnaru ani ardham kaledu naku.
Astu.
Okay.
Astu. So the next worksheet is something very similar color. So do you want to go over this? We can do this.
Bhagini, you can send the answer so that we can check whether we've got it correct or not.
Okay, so
and then if we have doubts we can ask in the next class.
Okay.
Or we can just tell the circled words instead of repeating the whole sentence.
Yeah, okay. Astu. So we can start very quickly. Kesaki Bhagini. Balakah Ganesham Archayati.
Yes, Bhagini, one second. Balakah Ganesham Archayati. Saha Kam Archayati. Kam Archayati.
Uttamam. Astu. Gopika Bhagini.
Dhanyavadam.
सचिवः कार्यालयं स्मरति. गोपिका भगिनी
सः आमां सः कं स्मरति? सः तं स्मरति.
उत्तम. सागरी भगिनी शिक्षकः ददाति.
सः किं ददाति? सः एतत् ददाति.
एतत् ददाति. अस्तु. उषा भगिनी मित्रं पुष्पं जिग्रति.
मित्रं किं जिग्रति? मित्रं तत् जिग्रति.
उत्तम.
भगिनी वाट् इस् जिग्रति?
टु स्मेल्. अस्तु. शारदा भगिनी
सिंहः वनं गच्छति. सः कुत्र गच्छति? सः तत्र गच्छति.
उत्तमम्. वीणा भगिनी अम्बा भोजनं करोति.
सा किं करोति? सा तत् करोति.
उत्तमं भगिनि. सविता भगिनी पुरुषः महिलाम् इच्छति.
पुरुषः महिलाम् इच्छति. सः कम् इच्छति?
महिलां स्त्रीलिङ्ग खलु.
ओके. सः काम् इच्छति? सः ताम् इच्छति.
उत्तमं भगिनि. उमाकृष्णन् भगिनी पेटिकां.
पेटिकां बालिका पेटिकाम् उद्घाटयति.
उत्तमं भगिनि. नारायणमूर्ति महोदय अहं शाला गच्छामि.
भगिनि उद्घाटयति.
ओपेन् ओपेन्.
धन्यवादः.
अहं शालां
गच्छामि. कुत्र गच्छति?
उत्तमम्.
अहं तत्र गच्छामि.
उत्तमं महोदय. श्रीनिवासमहोदय अहं लेखनीम् अन्वेषयति. सा लेखनीम् अन्वेषयति.
सा लेखनीम् अन्वेषयति. सा काम् अन्वेषयति. साम् अन्वेषयति.
उत्तमम्.
Bhagini, if you can just tell us the meanings of this, the verbs.
Okay, so if you don't know, okay, anveshayati is to look for it, search for it.
Thank you, Bhagini.
Okay, if you need a question, you ask me. Meaning, you ask me. Astu. Soundaram Bhagini. रम्या भगिनी उक्तवती वा न वा?
भगिनि भवान् मां ताडयति, भवान् कं ताडयति, भवान् मां ताडयति.
उत्तमम्. अस्तु सौन्दरं भगिनि. सौन्दरं भगिनि अस्तु परमेश्वर महोदय
मां पाठयति. ऐ डिडन्ट् अन्म्यूट् सारी. मां पाठयति. सा कं पाठयति. सा मां पाठयति.
सो देर् इस् नो आप्शन्
कां पाठयति. कां पाठयति. मां पाठयति.
अस्तु अस्तु अस्तु. परमेश्वर महोदय
सा मन्मिने सा सा सारि विच् वन् इस् दट् ऐ गोट्
दिस् वन् सा मां कथां वदति.
सा
सः सारि सः मां सारि
सः कां कथां वदति. सः मां कथां वदति.
So atra there's a option for only kam, but anyway that is fine. Kam katam vadati, mam katam vadati. Astu astu. Uma Reddy bagini bhavantam
bhavantam
na nindami. Nindami means to scold
nindami.
Bhavantam na किं निन्दामि मेडम्
उमारेड्डि भगिनि अम्यूट् करोतु अनन्तरं वदतु. भवन्तं न निन्दामि.
भवन्तं न निन्दामि. भवन्तं किं निन्दामि?
कं हूं खलु हूं. It's a person, pullinga. So, kam na nindami.
Kam na nindami. Aham bhavatyam na nindami.
Kimartam bhavatyam bhagini?
Bhavan.
Bhavantam.
Bhavan nindami. Bhavantam, okay, okay.
Bhavantam na nindami.
Na nindami.
Jyoti bhagini? Malati Bhagini, are you ready or no? Okay, if Malati...
I will try.
Astu, astu.
Bhavantam e-patram peshayati. Bhavantam... Bhavantam peshayati. Kaam.
So it is kam preshayati because bhavan is pullinga. Okay, kam preshayami.
Kam preshayami. Bhavantam.
Bhavantam preshayami. Uttama. Bhavantam preshayami.
Preshayami. Preshayati.
Is to send. To send.
Send.
Jyoti Bhagini, bhavantam namaskaromi.
भवन्तं नमस्करोमि. भवन्तं कं नमस्करोमि. भवन्तं नमस्करोमि.
उत्तमं. कं भवन्तम् उत्तमम्. अस्तु
भगिनी
महोदय उत्तमः प्रश्नः. Whenever we have me ending, what can be the only subject? Aham. So we can even
you are going to me.
I am going to you. Bhavantam aham namaskaromi. Aham bhavantam namaskaromi.
Aham bhavantam namaskaromi.
I salute you.
Okay, right. Correct. You are right.
Aham bhavantam namaskaromi. Yeah.
So can we leave aham in a sentence and use
So aham is understood. Similarly, when I say pustakam swikarotu, So, tatra bhavan or bhavati is the subject. Right? Bhavan or bhavati is the subject. So, we can eliminate the subject. Astu.
Got it.
So, yeah. Astu. So, who wants to do this? I want 3 volunteers for this. Fast, fast. You can do really fast.
I'll take one.
Bagini. Okay, so, yes. Srinivasa Mahodaya, go pick up. Bagini. Astu. Srinivasa Mahodaya. Sa Bhavati Abhinandati. Abhinandati means to congratulate.
Sa Bhavati Abhinandati. Sa Kam Abhinandati.
Uttama.
Bhavatim Abhinandati.
Uttama. Astu. Go pick up, Bagini.
अहं भवतीं न पश्यामि अहं कां न पश्यामि अहं भवतीं न पश्यामि
अस्तु सो यु डू द नेक्स्ट वन आल्सो बेगिनी सा भवतीं वदति
सः भवतीं वदति सः कां वदति सः भवतीं वदति
उत्तमम् सो नौ ऐ एम् श्योर् यु हेव् अ वेरि गुड् ऐडिया रैट् अबौट्
भगिनि वाट् इस् दिस् लास्ट् वन् मीन्
ऐ शी इस् टाकिङ्ग् टु यु
हि इस् टाकिङ्ग् ओके
नाट् इस् टाकिङ्ग् टु यु हि टाक्स् टु यु
सा भवतीं वदति
अस्तु भगिनि अस्तु So now we go, so I'm spending a lot of time on Dvitiya Vibhakti Sarvanam because it's very difficult. Okay, so that's the reason I gave so many exercises.
So, yes, Bhagini, it was very helpful.
Yeah, Astu. So I would like to do something new. Okay, so this one, the answers are in the back of the book also. And we had also done this in class, hello, half of it. Pita, Patam,
which is
this is from the Abhyasa Pustakam 7.2. So if you are looking for the page number, Trimshat Tama Putai, Trimshat.
Okay.
अस्तु केतिका भगिनी आरम्भं करोति वा पिता पुत्र
पिता पुत्र पाठः पठतु
पाठं पठतु
पाठं पठतु
गोपिका भगिनी अहं
पुत्रः आं भगिनि अहं पाठं पठितुं न शक्नोमि
पठितुं न शक्नोमि ऐ एम् नाट् एबल् टु रीड् सागरी भगिनी अहं
विद्यालयं न गतवान् ऐ डिड्न्ट् गो टु स्कूल्
विद्यालयं न गतवान् अस्तु
वाट् इस् गतवान् भगिनी
गतवान् इस् द पास्ट् टेन्स् आफ् गच्छति
ओ अस्तु भगिनि
ऐ डिड् नाट् गो टु स्कूल् अस्तु उषा भगिनी भवतु भवतु मीन्स् ओके
ओके भवतु अहं भवन्तं पाठयामि
भवन्तं पाठयामि सो भवतु मीन्स् लेट् इट् बि लैक् देट् यु नो इट्स् ओके
भवतु आल्सो मीन्स् ओके रैट् भगिनि
लैक्
इट् वास् इन् शिष्टाचार्य
शिष्टाचार्य वि हव् अस्तु एण्ड् भवतु दे बोत् मीन् ओके आर्
ओके
आर् समथिङ्ग् लैक् लेट् इट् बि लैक् देट् लैक् एस् ऐ वास् टेलिङ्ग् गोपिका भगिनि बिफोर् वेन् वि डू द मङ्गल vachakam okay mangala mantra shanti mantra or the mangala mantra what we call it we say sarve bhavantu okay and we also say sarve mangalani bhavantu and then somebody else will say tata astu அப்படியே ஆகட்டும். அப்படியே ததா மீன்ஸ் அப்படியே ததா ததா அஸ்து லெட் இட் பி லைக் தட்
மே பி
மே இட் பி கரெக்ட். So, if we just use it in general, like only astu or bhavatu, it means okay. Or it will be, oh, okay, it's okay, like that. Not it's okay, let it be. Okay, here it is, let it be. It depends on how we interpret it. Here it is, okay, let it be. Aham bhavantam paatayami, uttama. Charada bhagini.
Bhavatu bhagini.
So at this time you can say astu also, astu or bhavatu. Tamam. Bhavatu in general you say let the situation, I accept the situation, like that. Astu is more for okay.
Astu bhai.
Uttama. Sharada bhagini.
Satyam. भवान् माम् पाठयति.
उत्तमम्. अस्तु. सो पिता सेस् आम् पाठयामि. पाठयामि मीन्स् ऐ विल् टीच्. पाठयामि. पठामि मीन्स् ऐ विल् लर्न्. अस्तु. बीना भगिनी पुत्री वदति तात. तात इस् लैक् सेयिङ्ग् डेड् जनक. तात.
तात् माम् अपि पाठयतु.
माम् अपि पाठयतु. उत्तमम्. सविता भगिनी
अस्तु पिता अस्तु भवति.
हौ विल् दिस् चेञ्ज् न लेट् हर् से इट् लेट् हर् से
अस्तु भवति भवन्तु अपि पाठयामि.
सो शी इस् सेयिङ्ग् ऐ विल् टीच् यु.
भवती
ओ भगिनी ऐ वाण्ट् ओन्ली सविता भगिनी टु आन्सर् खलु.
अस्तु
भवत्या थीम् ओन्लि थीम् ओके ओन्लि इट् जस्ट् चेञ्ज् टु मकार. So,
अपि पाठयामि.
भवतीम् अपि पाठयामि.
अपि पाठयामि
भवतीम्. उत्तमम्. भगिनि कदा पाठयामि. ओके ऐम् गोयिङ्ग् टु म्यूट् एव्रिबडि अगेन्. अस्तु उमाकृष्णन् भगिनि अम्यूट् करोतु पठतु.
अस्तु भगिनि. पिता इदानीं भवन्तं पाठयामि.
भवन्तं पाठयामि. अस्तु भवन्तं पाठयामि. अस्तु नारायणमूर्तिमहोदय पुत्रः
पुत्रः अनुज इदानीं
दिस् वन् पुत्रः अनुजा कदा पाठयति.
अनुजा कदा पाठयति पुत्रः अनुजां कदा पाठयति.
अनुजां कदा पाठयति. वेन् विल् यु टीच् मै लिटिल् सिस्टर् यङ्गर् सिस्टर् अनुजां श्रीनिवासं
कदा पाठयति.
पिता
I will teach her in the evening. Tam sayankale patayami. Ramya bhagini.
Pita vadatu kam patam patayami.
Vadatu kam patam patayami. So he is asking the son which lesson should I teach. Kam patam patayami. उत्तमं भगिनि. सौन्दरं भगिनि द नेक्स्ट् वन्.
पुत्रः एषः पाठं तत् पाठं పాఠం పాఠయతు.
సో ఇట్ బికమ్ ఏతం ఏతం
ఏతం పాఠం పాఠయతు.
ఏతం పాఠం పాఠయతు. ఉత్తమ. సహ విల్ బికమ్ తం. ఏషః విల్ బికమ్ ఏతం. ఏతం పాఠం పాఠయతు. ఉత్తమం. ఉమా రెడ్డి భగిని, యు మే నాట్ నో దిస్, సో ఐ జస్ట్ సే సర్వాన్ పాఠాన్ పాఠయామి. దట్ ఇస్ బహువచనం. ఓకే, ఇట్ ఇస్ నాట్ గివెన్. సర్వాన్ పాఠాన్ పాఠయామి. ఓకే, సో ఐఎమ్ హోపింగ్ ఆల్ ఆఫ్ యూ కెన్ అండర్స్టాండ్ దిస్, రైట్? సో తమ్ ఇది అస్తి చేత్ వాట్ ఇస్ ద ప్రథమ విభక్తి? సహ. ఉత్తమం. ఏతం ఇది అస్తి చేత్ ప్రథమ విభక్తి అస్తి చేత్ సా విల్ బికమ్ తాం. హలో, వాట్ విల్ బికమ్ ఏతాం? బికమ్ ఏతాం. ఉత్తమం. వాట్ విల్ బికమ్ కాం? కా ఏవ, ఓన్లీ కా. ఓకే, సో ఇట్స్ వెరీ కన్ఫ్యూజింగ్. So, you know, okay. Which will become tat?
Madam, pita. Chappal na, madam.
Yeah, no, you can just say it. Okay.
Sarvan patam.
Asto. So, for neuter gender, it doesn't change, right? Tat is tat, stays as tat. ఏతత్ స్టేస్ అస్ ఏతత్. కిం స్టేస్ అస్ కిం. వాట్ విల్ బికమ్ భవంతం?
భవాన్.
వాట్ విల్ బికమ్ భవతీం?
భవతి.
భవతి.
భవతి. భవతి. వాట్ విల్ బికమ్ మామ్?
అహం.
అహం. అహం. ఉత్తమం. ఓకే, అస్తు. So now I have a few minutes, so we'll go. This is a very easy lesson, so we can go over this very fast. Okay, so atra we use shashti vibhakti to say puratah, prishtatah and all that. So I have to make this smaller so we can see the full screen. Okay, sorry about that. Okay, so I will just read it and I'll explain. Okay, saha keshavah. So this is the man. Okay, saha keshavah. Keshavasya puratah shakatah asti. Shakatah is a cast. Puratah, what does puratah mean?
Full.
In front. In front. Okay, keshavasya puratah shakatah asti.
I can show you
either the picture or the word.
Okay, got it. Doesn't matter, it's okay.
No, it's okay. So it is important to see the picture. I can just say the word. Keshavasya puratah shakatah asti. Puratah means in front of. So this lesson is to show in front, behind, వామతః దక్షిణతః, ఆల్ దట్. ఓకే, సో పురతః మీన్స్ ఇన్ ఫ్రంట్. కేశవస్య పురతః శకటః అస్తి. కేశవస్య పృష్ఠతః, బిహైండ్. పృష్ఠతః వసతి మందిరం అస్తి. పృష్ఠతః మీన్స్ బిహైండ్. కేశవస్య పృష్ఠతః వసతి మందిరం అస్తి. So instead of saying
what is vasati mandiram,
Basati Mandiram is a place where people come to stay. It's like a chatram. Or what is it? Like a lodge. Lodge. Okay, many different words for it. Okay, Vasati Mandiram. So instead of saying Kesha Vasya, we can also say Tasya. Tasya Prishtataha Vasati Mandiram Asti. Okay? Tasya Dakshinataha. Dakshinataha Devalayaha Asti. So what does Dakshinataha mean?
Right hand.
Right side, yeah, because right Devalayaha is over there. To his right. Tasya Dakshinataha Devalayaha Asti. Tasya Vamataha Vrikshaha Asti. What does Vamataha mean?
Left.
Left side, yeah. Vamataha Vrikshaha Asti. Vamataha Vrikshaha Asti. Devalayasya Upari Kalashaha Asti. What does Upari mean? Up, up.
On top.
Devalayasya Upari Kalashaha Asti. Shakatasya Adaha Shunakaha Asti.
Under,
Uttama, under. Shunakaha. Okay? So, aham punaha varami. Keshavasya puratah shakataha asti. Tasya prishtataha vasati mandiram asti. Tasya dakshinataha mandiram asti. Atava devalayaha asti. Devalayasya upari kalashaha asti. Tasya vamataha Keshavasya Vamataha Vrikshaha Asti.
Bhagini?
I didn't hear you, Bhagini. Can you say the meaning for Vamataha?
Okay, Vamataha is left side.
Left side.
Dakshinataha, right side. Purataha, in front. Prishtataha, behind.
Upari. So can we say? Mandirasya prishtataha, what do you say for mountain?
Mountain.
Parvataha asti.
Parvataha asti. So each one can now describe something. Okay. So ekam vadamaha. So we start with Ketaki Bhagini.
Yes, Bhagini.
So you want to say some sentence looking at the picture?
Yes. Keshavasya Purataha.
Keshavasya Dakshinataha Mandiram Asti.
No. The guy's back is a Mandiram. Asti Mandiram.
So that is
the Vasati Mandiram is not a temple.
Working in the right. Right is Dakshinataha. Keshavasya. Okay, I'm going to put everybody on mute. It's very noisy again. Asta, so Asta, Ketaki Bhagini, Vadatu, Keshavasya, Purataha, in front, Kim Asti? Shakataha Asti, Gopika Bhagini.
Bhagini.
Vadatu.
करदूरवाणी करदूरवाण्याः
हा
पुरतः
हा
चित्रम् अस्ति
चित्रम् अस्ति अस्तु सो यु आर् टाकिङ्ग् अबौट् योर् करदूरवाणी उत्तरं उत्तमं भगिनि सागरि भगिनि विल् गिव् एव्रिबडि ए चान्स् ओके अस्तु सागरि भगिनि
केशवः पुरतः केशवस्य पुरतः फलानि सन्ति
उत्तमं भगिनि उत्तमं भगिनि
केशवस्य पुरतः स्तम्भः अस्ति
किमस्ति
स्तम्भः
दट् इस् वाट् स्तम्भः वा स्तम्भः स्तम्भः अस्ति फोर् अस्तु
केशवस्य केशवस्य पृष्ठतः स्यूतः अस्ति
केशवस्य पृष्ठतः न बालकस्य पृष्ठतः
बालकस्य
पृष्ठतः अस्ति हू जस्ट् आन्सर् नौ
सौन्दरं
भगिनि अस्तु सागरी भगिनी अभवत् उषा भगिनी अभवत् शारदा भगिनी वृक्षस्य उपरि किम् अस्ति
वृक्षस्य उपरि
नारिकेलफलम् अस्ति फलानि सन्ति नारिकेलफलानि सन्ति नारिकेल
वृक्षस्य उपरि नारिकेलफलानि सन्ति
नारिकेलफलानि सन्ति वीणा भगिनी
केशवस्य वामतः वृक्षः अस्ति
केशवस्य वामतः वृक्षः अस्ति उत्तमं भगिनि सविता भगिनि सो यु केन् से संथिङ्ग् विच् इस् ओके सो वि विल् डू वन् थिङ्ग् विल् गो टु अ डिफ्रेण्ट् पिक्चर् एकनिमिषम् अत्र अत्र सो यु केन् लुक् एट् दिस् पिक्चर् अण्ड् से वदतु भगिनि अस्तु उमाकृष्णन् भगिनि
आं भगिनि नारायणस्य वाट् टु से फर् लेफ्ट्
वामतः
वामतः लक्ष्मी अस्ति
लक्ष्मीः अस्ति अस्तु नारायणमूर्तिमहोदय
ईश्वरः दक्षिणभागे ईश्वरस्य
दक्षिणतः
पार्वती अस्ति
दक्षिणतः गणेशः दक्षिणतः गणेशः दक्षिणतः दक्षिणभागे और् दक्षिणतः
ईश्वरस्य दक्षिणतः गणेशः अस्ति
गणेशः अस्ति गणेशः अस्ति श्रीनिवास महोदय श्रीनिवास महोदय प्राबब्लि लेफ्ट्
केन् ऐ आन्सर्
रम्या अस्ति वा
अस्तु
न एकनिमिषं भगिनि लेट् श्रीनिवास महोदय ट्रै
देवस्य अतः मयूरः अस्ति
मयूरः अस्ति सो यु आर् टाकिङ्ग् अबौट् देवी और्
देवस्य
पुरतः पुरतः मयूरः अस्ति उत्तमम् उत्तमं महोदय अस्तु रम्या भगिनी
शिवस्य पुरतः ऋषभम् अस्ति
ऋषभः अस्ति ऋषभः उत्तरं सौन्दरम् उक्तवती शी आलरेडि सेड् परमेश्वर महोदय मेबि ऐ चेञ्ज् द पिक्चर् परमेश्वर महोदय
भगिनी अष्टवादने अभवत्
So I just want to give turn to three more people. Usha, okay. I mean Uma Reddy Bagini, Malati Bagini, Jyoti Bagini. Uma Reddy Bagini. Uma Reddy Bagini?
Ramasya?
Sorry, I haven't got the chance to answer. I am just answering. रामस्य
एकनिमिषं महोदय एकनिमिषं महोदय इदानीम् उमारेड्डि भगिनी वदति उमारेड्डि भगिनी
रामस्य वामतः सीतादेवी
सीतादेवी अस्ति अस्तु महोदय इदानीं वदतु
ओके हनुम रामस्य फ्रेंड व्हाट डू कॉल फॉर फ्रेंड
पुरतः
हनुमान् अस्ति
आञ्जनेयः अस्ति आञ्जनेयः अस्ति अस्तु मालति भगिनी और् ज्योति भगिनी किमपि वदति वा
ज्योति भगिनी
ज्योति भगिनी
कृष्णस्य वामः राधा अस्ति
अस्तु ज्योति भगिनी
रामस्य दक्षिणतः लक्ष्मणः अस्ति
लक्ष्मणः अस्ति उत्तम ओके अस्तु सो इदानीं विरमामः सो वि विल् क्लोस् द क्लास् वि विल् टेक् अ ब्रेक् फ्रम् द क्लास् अस्तु सो ऐ एम् गोन् टु सेण्ड् आल् दीस् पिक्चर्स् ओके सो यु केन् मेक् अप् एस् मेनि सेण्टेन्सेस् एस् यु वाण्ट्
ओके मेडम्
ओके अण्ड् देन् ऐ हेव् आल्सो गिवन् द वर्ड्स् okay so you can make up so many sentences using all these words astha
thank you Bhavana.
Okay so and I will send you this homework also so as much as you can do okay astha viramaha shanti mantra vadamaha सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि भद्राणि पश्यन्तु सर्वे दुःखभागिनः ॐ शान्ति 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 शान्तिः हरिः ॐ नमः हरिः
ॐ
धन्यवादः भगिनि
धन्यवादः
धन्यवादः पुनः मिलामः
अस्तु विरमामः
इन् भवेत् वी हाव् द मूलरूपं रैट् भगिनि
फार् वाट् भगिनि
इन् द शान्तिमन्त्रं वी हाव् भवेत्
भवेत् मूलरूपं अस्तु उत्तमः प्रश्नः Bhavet is not the Moola Rupam, it's another tense,
Lakar.
Saying may it. Like for example, if I want to say, I don't know if there is going to be rain. There might be rain. There may be rain.
Is it like Bhava plus Iti?
What?
Is it Bhava plus Iti, Bhavet?
No. So if I say let there not be, so we will discuss it the next time, Bhagini. And the time is up now. Everybody has to leave. Up to Bhagini.